सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति त्वान्तरूपम् इति. तत्र गत्वा, पीत्वा, भूत्वा, दृष्ट्वा, श्रुत्वा, कृत्वा, ज्ञात्वा इति तादृशरूपाणि. त्वान्तपदम् अव्ययमस्ति. अपि च तत्र वयं दृष्टवन्तः गतवर्गे तत्र त्वान्तरूपं, तत्र किं कार्यद्वयं भवति, प्रथमकार्यम् अपि द्वितीयकार्यम् एकस्य अनन्तरम् एकं. तत्र प्रथमक्रिया अथवा कार्यम् अथवा क्रियायाः क्रियापदस्य स्थाने नूतनरूपं स्थापयामः त्वान्तरूपम् इति. तत्र किं, तत्र सीता मोदकं खादति, सा जलं पिबति इति अस्ति चेत् सीता मोदकं खादित्वा जलं पिबति इति. तत्र कार्यद्वयमस्ति, क्रियाद्वयमस्ति, खादति तदनन्तरं पिबति इति. अतः प्रथमक्रियापदस्य स्थाने खादति इति स्थाने खादित्वा इति भवति. तत्र सीता इति स्थाने सीता मोदकं खादति, सा जलं पिबति, तद्भवति सीता मोदकं खादित्वा जलं पिबति इति. इदानीं तत्र महिलाः अस्ति चेत् वाक्यं किं भवति? महिलाः मोदकं खादित्वा जलं पिबन्ति इति भवति. तत्र प्रथमभागस्य तत्र खादित्वा एव भवति. तत् अव्ययमस्ति, लिङ्गभेदः अस्ति, वचनभेदः, लिङ्गभेदः नास्ति, वचनभेदः नास्ति इति तादृश अस्ति. अस्तु, तत्र गतवर्गे वयं कथां पठितवन्तः, अखण्डविश्वासः इति कथा. तत्र गृहपाठः अपि आसीत्. किञ्चित् एकवारं तस्य कथायाः विषये किञ्चित् पुनस्मरणं कुर्मः तत्र शीघ्रतया. तत्र अस्तु, गीताञ्जलि भगिनी किञ्चित् वदति वा कथायाः विषये? गतवर्गे आसीत् खलु भगिनी? अस्तु, भवती नासीत्. अस्तु अस्तु अस्तु, तर्हि शोभ भगिनी किञ्चित् वदति वा, केवलं प्रथमपरिच्छेदस्य विषये, कः सन्दर्भः इति.
आम् महोदय,
वाक्यद्वयं त्रयं तावदेव सरलरूपेण.
विषय अस्ति महाभारतयुद्धसमये. तत्र भीष्मः कौरवाणां सेनापतिः अस्ति चेदपि पाण्डवानां सः कथं वदामि, एकमपि न मारितवान्
इति. एकमपि न मारितवान्.
अतः दुर्योधनः अतीव क्रोधितवान्.
तस्य क्रोधितः अस्ति
अथवा किञ्चित् चिन्तितवान् अपि. अपि च
समीचीनं भगिनि, समीचीनं, तावदेव समीचीनं, बहु समीचीनं. प्रथमपरिच्छेदः तावदेव समीचीनं भगिनि, धन्यवादः. वंशीसुध भगिनी नमस्कारः, पूर्णेन्दु महोदय नमस्कारः, शुभगिनी नमस्कारः.
क्षम्यतां महोदय, कुत्र अस्ति कथा?
कथा अस्ति 132 पेज् मध्ये, अखण्डविश्वासः इति. गतवर्गे वयं कृतवन्तः. इदानीं शोभा भगिनी प्रथम परिच्छेदे किम् अस्ति इति उक्तवती. इदानीं तस्य अग्रे गच्छामः. तत्र उषा भगिनी किञ्चित् वदति वा, तदनन्तरं किं, दुर्योधनः कुपितः इदानीं.
दुर्योधनः कुपितः आसीत्.
सः किं वदति? सरलरूपेण यत् तत्र लिखितमस्ति तद् मास्तु, भवत्या स्वशब्दैः किन्तु सरलरूपेण.
पाण्डव एव भवतः प्रियः अस्ति,
वयं न केवलं पाण्डवाः एव भवतः प्रियाः इति.
त्वं विद्यं लैक् सः क्रीडति, भवान् युद्धं न करोति.
भवान् तेन तेन न क्षम्यतां, तैः क्रीडति,
तैः क्रीडति, कमपि न मारयति,
सः क्रीडति, तैः सः क्रीडति,
कमपि न मारयति
इति. हा, तावदेव भगिनि, समीचीनम्. अस्तु, अतः तत्र सः दुर्योधनकुपितः अस्ति. सः भीष्मं वदति, किं केवलं क्रीडा अस्ति इति चिन्तयति वा भवान् पितामह? एतत् युद्धम् अस्ति इति हा स्मारयति. अस्तु, अग्रे उमा मीनाक्षी भगिनी किञ्चित् वदति वा, अग्रे भीष्मः किं करोति इदानीं?
भीष्मः प्रतिज्ञां करोति.
हा, सः किं वदति?
अहम् अर्जुनं मारयिष्यामि
श्वः,
अद्य अथवा श्वः,
श्वः अथवा
अहं पराजितः भविष्यामि,
भविष्यामि इति सः प्रतिज्ञां, एतादृशी प्रतिज्ञाम्, एतादृशीं
प्रतिज्ञां करोति
भीष्मः करोति. समीचीनं भगिनि. हा, तदनन्तरं किं भवति इति. अस्तु, तत्र रघुपतिमहोदय अग्रे किं भवति?
अग्रे भीष्मस्य प्रतिज्ञां श्रुत्वा सर्वे पाण्डवाः दुःखिताः, सर्वे पाण्डवाः चिन्तितः अभवन्. कृष्णः अपि चिन्तितः अभवत्. अपि च कः किञ्चित् सः
सः किं करोति, श्रीकृष्णः किं करोति?
अतः चिन्तित पाण्डवान् स्वान्तयितुं सः गच्छति. तत्र अर्जुनः तु, अर्जुनः चिन्तयति, अर्जुनः
अर्जुनः बहु बहु
चिन्तितः स्यात्,
चिन्तितः स्यात् इति चिन्तयित्वा समाधानम् अथवा तस्य समाधानं कर्तुं सः सेनाशिबिरं गच्छति. समीचीनं महोदय. अस्तु, धन्यवादः. अस्तु, अग्रे कः वदति अथवा का वदति? शुभभगिनी किञ्चित् वदति वा? अस्तु,
श्रीकृष्णः एवं चिन्तयति, किन्तु श्रीकृष्णः यदा शिबिरं गच्छति तत्र दृष्ट्वा अर्जुनः किं करोति इति दृष्ट्वा सः आश्चर्यः भवति,
अनुभवति आश्चर्यम् अनुभवति.
सः चिन्तयति, ऐ मीन् सः न चिन्तयति, यतः तदा गत्वा सः पश्यति अर्जुनः तु गाढनिद्रायामेव अस्ति तत्र. अर्जुनम् उत्थाप्य सः पृच्छति, कृष्णः पृच्छति, पार्थ किं भवान् भीष्मस्य प्रतिज्ञां जानाति वा न वा इति. अर्जुनः वदति, अहं तां वार्तां श्रुतवान् एव, तां प्रतिज्ञां विषये अहं श्रुतवान् एव इति वदति.
समीचीनं भगिनि. अस्तु, अग्रे कः वदति?
अहं प्रयत्नं करोमि महोदय.
अस्तु भगिनि, प्रयत्नं करोतु भगिनि.
तदनन्तरं श्रीकृष्ण वदति, यदि
भीष्मस्य
प्रतिज्ञा शृणोति, तदनन्तरं
श्रुतवान् वा,
श्रुतवान् तदनन्तरं कथं गाढनिद्रां करोति,
कर्तुं शक्नोति
एव. तदनन्तरं अर्जुनः वदति,
उत्तरं ददाति, कीदृश उत्तरं ददाति?
अहं जानामि भवान् एव सर्वं तत् विषये चिन्तनं करोति, तथा अहं
तस्मिन् विषये
भवान् सर्वस्य कृते चिन्तनं करोति.
हा सर्वस्य इति तत्तु सत्यं, किन्तु अर्जुनस्य उत्तरे मम चिन्तनं मम कृते मम
एव करोति
अतः
अतः अहं निश्चयेन निद्रां करोति
निद्रां करोमि तत्र किम् अन्यरीत्या समीचीनं भगिनि तत्र मम मम यो मम जीवनस्य अथवा मम योगक्षेमस्य योगक्षेमस्य उत्तरदायित्वं मम उत्तरदायित्वं नास्ति मम जीवनस्य उत्तरदायित्वं भगवतः भवतः श्रीकृष्णस्य एव अतः अहं किमर्थं चिन्तयामि अहं सम्यक्तया निद्रां करोमि इति सः वदति अस्तु बहु समीचीनम् अस्ति अस्तु तत्र अखण्डविश्वासः अथवा गाढविश्वासः इति तत् दृढविश्वासः इति रूपद्वयं दत्तमस्ति किन्तु अत्र एकः विषयः अस्ति तत्र पेज् 133 मध्ये तत्र एकं द्वितीयवाक्यम् अस्ति तत्र स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभारः भगवतः भवतः एव इति तत्र कोऽपि तत्र तस्य वाक्यस्य गतवर्गे वयं स्वीकृत्या कृतवन्तः सर्वं समीचीनमेव अस्ति किन्तु अत्र तत् अत्र किञ्चित् पुनरेकवारं पश्यामः किञ्चित् तत्र किम् अस्ति इति पश्यामः तत्र तत्र हा वंशीसुधभगिनी किञ्चित् वदति वा तस्मिन् तस्य वाक्यस्य विषये
आम् महोदय स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभार भगवतः
भवतः एव इदानीं वयम् अर्थः जानीमः खलु तत्र किम् इदानीं तत्र किन्तु एकमेकं पदं स्वीकृत्य किञ्चित् वदतु भगिनि तत्र
आं महोदय स्वस्य भक्तस्य तत् षष्ठी विभक्तौ अस्ति तद् भगवतः भक्तः इति तत्र अर्थः भीष्मप्रतिज्ञायाः इत्युक्ते तत्र भीष्मप्रतिज्ञा इति प्रातिपदिकं भीष्मप्रतिज्ञायाः इत्युक्ते षष्ठी विभक्ति अस्ति पञ्चविभक्ति अस्ति महोदय रक्षणभारः रक्षणभारः इति कारणेन भीष्मप्रतिज्ञायाः इति पञ्चमी विभक्ति अस्ति भीष्मप्रतिज्ञायाः रक्षणभारः भगवतः भवतः एव तत्र भगवतः भवतः इति षष्ठी विभक्तौ अस्ति इति अर्थम् अन्वयवाक्यमस्ति भीष्मप्रतिज्ञायाः रक्षणभारः स्वस्य भक्तस्य भगवतः भवतः एव
स्वस्य भक्तस्य
भगवतः भवतः एव समीचीनं नास्ति महोदय
न तत्र अस्तु 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 भगिनि तत्र एतादृशं कुर्मः तत्र भवत् रक्षणभारः इति आरम्भं कुर्मः खलु रक्षणभारः इति ततः आरम्भं कुर्मः रक्षणभारः भवतः रक्षणभारः भवतः रक्षणभारः भवान् भगवान् अस्ति अतः भवतः भगवतः अथवा भगवतः भवतः रक्षणभारः अस्तु इदानीं कस्य रक्षणभारः अस्तु भक्तस्य रक्षणभारः कीदृशभक्तस्य स्वस्य भक्तस्य स्वस्य भक्तस्य रक्षणभारः भगवतः भवतः एव कस्मात् रक्षणम् आवश्यकम्
इत्युक्ते
भीष्मप्रतिज्ञायाः इति पञ्चमीभक्ति यथा भवती उक्तं समीचीनमेव भगिनि किन्तु गतवर्गे अहं चिन्तयामि तत्र भीष्मप्रतिज्ञायाः इति अहं षष्टिविभक्तिरूपम् इति उक्तवान्, अतः अत्र दोषः आसीत् इति तद् समीकर्तुम् अहम् इदानीं तद्वाक्यं पुनर् पश्यामः इति उक्तवान्, किन्तु भवती सम्यक्तया उक्तवती तत्र भीष्मप्रतिज्ञायाः तु पञ्चमी विभक्त्यन्तं, पञ्चमी अपि षष्टि साम्यम् अस्ति, किन्तु अत्र यद्यपि अन्ये पदे तत्र स्वस्य भक्तस्य अपि भगवतः भवतः तत्र सर्वत्र षष्टिः अस्ति, किन्तु भीष्मप्रतिज्ञायाः तत्तु पञ्चमी विभक्त्यन्तमेव अस्ति इति. तावदेव, समीचीनं भगिनि, धन्यवादः.
तत्र स्वस्य भक्तस्य तत्र विशेषभावः अस्ति,
भावः अस्ति, सत्यं भगिनि, अपि भवतः भगवतः तत्रापि.
महोदय,
अन्वय
अन्वय पुनः वदतु महोदय,
तत्र मम चिन्तनमस्ति तत्र
स्वस्य भक्तस्य रक्षणद्वारः
भगवतः भवतः एव, किन्तु तत्र वयं तस्मिन् समये प्रश्नः भवति कस्मात् रक्षणम् इति, कस्मात् रक्षति इति, अतः भीष्मप्रतिज्ञायाः रक्षणभारः भक्तस्य रक्षण भक्तस्य भक्तः रक्षणम् इच्छति, किन्तु कस्मात् रक्षणम् इच्छति इत्युक्ते भीष्मप्रतिज्ञायाः रक्षणम् इच्छति. अतः यथा वाक्यं दत्तमस्ति तदेव वाक्यं भगिनि, तत्र अन्वयः किमपि करणीयं नास्ति, सः एव अन्वयः, किन्तु तत्र भीष्मप्रतिज्ञायाः इति पञ्चम्यन्तम् तदेव, तत्र पूर्वं स्वस्य भक्तस्य षष्टिः अस्ति, तदनन्तरं भगवतः भवतः अपि षष्टिः अस्ति, अतः मध्ये अपि षष्टिः भवेत् इति चिन्तनं भवति, किन्तु न तादृशं नास्ति, भीष्मप्रतिज्ञायाः इति पञ्चमी, कस्मात् रक्षणम् इति.
सामान्य लघुवाक्यमपि भक्तस्य रक्षणाभारः भगवतः एव,
भगवतः एव, सत्यं भगिनि,
कीदृश भक्तस्य, स्वस्य भक्तस्य,
सत्यं,
भगवतः कीदृश भगवतः, भवतः भगवतः,
सत्यं, भीष्मप्रतिज्ञायाः इति. अस्तु, समीचीनम्. अस्तु, गतवर्गे अहं तत्र षष्टि इति उक्तवान्, अतः दोषः आसीत्. अस्तु अस्तु, तर्हि अत्र प्रायशः वयं तत्र अभ्यासः द्वितीय अभ्यासः न कृतवन्तः इति मन्ये, तद् कृत्वा अग्रे तत्र करपत्रं मया प्रेषितमस्ति, तद् अपि कुर्मः अद्य, तदनन्तरं ल्यवन्तम् इति रूपं पश्यामः. अस्तु, तर्हि तत्र पूर्णेन्दुमहोदय आरम्भं करोति वा द्वितीय अभ्यासः, पेज् 133 मध्ये.
यथोदाहरणं वाक्यद्वयं कृत्वा लिखत. उदाहरण भीष्मः सेनापतिः भूत्वा युद्धं करोति. भीष्मः सेनापतिः भवति, युद्धं करोति. तत्र प्रथमं प्रश्नः अस्ति, दृष्ट्वा अवदत्. एतत् वाक्यम् अतीतकाले अस्ति, लङ्लकाले अस्ति, अतः सः भीष्मं दृष्ट्वा पस् धातोः दृष् धातोः अपश्यत्, सः भीष्मम् अपश्यत् अवदत् च इति तत्र स्थापयितुं शक्यते वा?
सः भीष्मम् अपश्यत् सः अवदत्
सः अवदत् सः भीष्मम् अपश्यत् सः अवदत्
तावदेव. अथवा तत्र यदि किञ्चित् अधिकं वक्तुम् इच्छामः, सः तम् अवदत् तदपि वक्तुं
शक्नुमः,
भीष्मम् अवदत् इति, सः तम् अवदत् इति अपि वक्तुं शक्नुमः. समीचीनं महोदय. इदानीं तत्र अस्माकं तत्र कार्यं किम् इत्युक्ते त्वान्तरूपम् उपयुज्य वाक्यद्वयम् एकवाक्यं कर्तुं शक्नुमः. इदानीम् एकवाक्यं दत्तमस्ति, तस्य मूलवाक्यद्वयं किम् अस्ति इति अत्र वयं वदामः. तावदेव. तत्र रूपं तत्र दृष्ट्वा इति सः भीष्मं दृष्ट्वा अवदत् इति अस्ति. यदि तत्र सः इति स्थाने सा इति अस्ति चेत् महोदय किं भवति, रूपं किं भवति? पूर्णेन्द्र महोदय, परिवर्तनं भवति वा तत्र वाक्ये? यद्वाक्यं दत्तमस्ति तस्मिन् वाक्ये सः इति स्थाने सा इति स्थापयितुं शक्नुमः वा?
शक्नुमः.
हा, कोऽपि भेदः न भवति. अवदत् इति तु क्रियापदमस्ति, क्रियापदमस्ति, तत्र लिङ्गभेदः नास्ति, वचनं समानमस्ति. दृष्ट्वा अपि अव्ययमस्ति, तत्तु न पश्यति. यद् यदि कर्तृपदं तत्र एकवचने अस्ति वा, प्रथमपुरुषः वा, एकव लिङ्ग किं लिङ्गं किम् इति किमपि न पश्यति, समानमेव भवति. अतः दृष्ट्वा एव तिष्ठति तत्र. समीचीनं महोदय. अस्तु, अग्रे नरेश महोदय द्वितीयवाक्यं करोति वा?
आं महोदय. भीष्मः एतत् श्रुत्वा दुःखितः भवति. भीष्मः एतत् शृणोति सः दुःखितः भवति.
सः दुःखितः भवति. हा, समीचीनं. हा, तत्र एकः अंशः अस्ति, तद् वक्तव्यमेव नास्ति, किन्तु एकवारं वदामः. तत्र कार्यद्वयम् इति वयं चिन्तयामः. त्वान्तरूपम् अस्ति चेत् तत्र भीष्मः शृणोति, भीष्मः दुःखितः भवति. तत्र कार्यद्वयम् अस्ति, किन्तु एतद् वक्तव्यमस्ति, कर्तृपदं समानमस्ति. द्वयोः वाक्ये कर्तृपदम् एकमेव. तत्र रामः गच्छति, सीता आगच्छति इति अस्ति चेत् तत्र सा रामः गत्वा आगच्छति इति नास्ति खलु? तादृशवाक्यं न भवति. समानकर्तृपदं वाक्यद्वये इति. अस्तु, समीचीनम्. अग्रे अरुणा भगिनि.
आं महोदय. श्वः युद्धं कृत्वा अर्जुनं मारयिष्यामि. श्वः युद्धं करोमि
अथवा करिष्यामि.
करिष्यामि. श्वः अर्जुनं मारयिष्यामि.
श्वः अथवा श्वः युद्धं करिष्यामि, अर्जुनं मारयिष्यामि. तदपि समीचीनं. तदपि समीचीनम् अस्ति भगिनि. श्वः अपि भवति चेत् चिन्ता नास्ति. समीचीनं भगिनि. अस्तु, अग्रे एतावत्. उमा मीनाक्षी भगिनी वक्तुम् इच्छति वा?
ओके. श्वः श्रीकृष्णः भीष्मप्रतिज्ञां ज्ञात्वा उपायं चिन्तयति. श्रीकृष्णः भीष्मप्रतिज्ञां जानाति. सः उपायं चिन्तयति.
हा, समीचीनं भगिनि. सः इत्युक्ते तत्र श्रीकृष्णः एव इति. समीचीनम्. अस्तु, अग्रे उषा भगिनि.
आं महोदय. श्रीकृष्णः शिबिरं गत्वा अर्जुनं दृष्टवान्. दृष्टवान् तव तु प्रत्ययः अस्ति. गत्वा गच्छति इति. श्रीकृष्णः शिबिरम् अगच्छत्, अर्जुनं दृष्टवान्.
हा, अथवा तत्र समीचीनमेव अस्ति भगिनि. अथवा तत्र श्रीकृष्णः शिबिरं गतवान्, अर्जुनं दृष्टवान्. तदपि सम्यक् एव. तत्र विकल्पः अस्ति. समीचीनं भगिनि. अस्तु, शोभा भगिनि अग्रे.
अर्जुनः हसित्वा शान्तस्वरेण वदति. अर्जुनः हसति, शान्तस्वरेण वदति.
हा, समीचीनं भगिनि. हा, तावदेव. अस्तु, अग्रे गीताञ्जलि भगिनी.
अहं किमर्थं चिन्ता कृत्वा दुःखितः भवामि? अहं किमर्थं चिन्तां करोमि? अहं किमर्थं दुःखितः भवामि?
अस्तु, तत्र किमर्थं चिन्तां करोमि, किमर्थं दुःखितः भवामि, हा प्रायशः
अकरोत् अहं.
न न न न, तदेव समीचीनमेव अस्ति, किन्तु तत्र द्विवारं किमर्थम् इति भवति वा इति चिन्तयामि तावदेव. केवलम् अहं किमर्थं तत्र किमर्थं चिन्तां कृत्वा दुःखितः भवामि इति, तत्र किमर्थम् इति
दुःखितः भवामि इति तु न, तदनन्तरं अतः अहं किमर्थं दुःखितः भवामि इति अहं मन्ये.
न न, यदि
एकवारमपि समीचीनम् अस्ति वा महोदय? अहं किमर्थं चिन्तां करोमि, दुःखितः भवामि?
यदि वाक्यद्वये अस्ति महोदय, तदनन्तरं द्वितीयवाक्य दुःखितः भवामि इति वदति, तत्तु सत्यं न न?
हा, तत्र तत्रापि प्रश्नः एव भवति इति खलु, तत्र प्रश्नः एकः अस्ति, किन्तु तत् किं वयं कुर्मः, प्रश्नद्वयं कुर्मः खलु अत्र.
महोदय, संस्कृतभाषायां प्रश्नचिह्न इति नास्ति न महोदय? यदि प्रश्नचिह्न
नास्ति, अतः तत्र किमर्थम् इति आवश्यकम् अस्ति खलु, नो चेत् तत्र अतः अहं चिन्तयामि तत्र अहं किमर्थं चिन्तां करोमि, किमर्थं दुःखितः भवामि इति, तदपि साधु अथवा एकवारं वदामः अपि प्रायशः साधु इति मन्ये भगिनि. अस्तु, इदानीं तत्र अग्रे गच्छामः, तत्र करपत्रमेकमस्ति, केवलं त्वान्तरूपस्य अभ्यासं भवतु इति, तावदेव. तत्र किञ्चित् कृतवन्तः, किन्तु तत्र सरलवाक्यानाम् अभ्यासः नासीत् इति एकया छात्रया उक्तमासीत् गतवर्गे. एतद् बहु फिलोसोफिकल् इति सा उक्तवती, अतः सरलवाक्यं स्वीकृत्य त्वान्तरूपं कुर्मः इति एतत् करपत्रं स्वीकृतं. तत्र सर्वे प्राप्नुवन्ति वा? अस्ति वा करपत्रम्? अस्तु अस्तु, तर्हि तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र? तत्र 156 व्यासः इति अस्ति.
156 वा? अस्तु अस्तु, 156 अस्तु. उदाहरणानुगुणं त्वान्तपदैः वाक्यानि योजयतु. सीता मोदकं खादति. एकनिमिषं महोदय. अस्तु, सीता मोदकं खादति, सा जलं पिबति. सीता मोदकं खादित्वा जलं पिबति. जननी स्नाति, पाकं करोति. स्नाति स्नात्वा, जननी स्नात्वा पाकं करोति.
हा, समीचीनं महोदय. अस्तु, अग्रे वंशी सुधा भगिनी.
आं महोदय, तृतीयवाक्यमस्ति, जनकः कार्यालयं गच्छति, कार्यं करोति. जनकः कार्यालयं गत्वा कार्यं करोति.
हा, समीचीनं भगिनि. नरेश महोदय अग्रे.
छात्रः पाठं पठति, निद्राति. छात्रः पाठं पठित्वा निद्राति.
हा, समीचीनं. हा, शुभा भगिनी अग्रे.
शिशुः फलं खादति, क्रीडति. शिशुः फलं खादित्वा क्रीडति.
हा, समीचीनं भगिनी. पूर्णेन्दु महोदय अग्रे.
त्वं पत्रं लिखसि, प्रेषयसि.
त्वं पत्रं लिखित्वा प्रेषयसि.
हा समीचीनं महोदय. उमा मीनाक्षी भगिनी.
भवती देवं वमति
नमति नमति
गॉड व्हाट इज दैट
नमति नमति
नमति प्रदक्षिणं करोति. भवती देवं नत्वा प्रदक्षिणं करोति.
हा समीचीनं भगिनी. हा समीचीनं. तत्र
दत्तमस्ति महोदय. तत्र दत्तमस्ति.
हा 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 सर्वं दत्तमस्ति. केवलं तत्र अधोभागे एव दत्तमस्ति.
उपयोगं न कर्तव्यं.
हा
सप्तमवाक्यं सप्तमवाक्यस्य नत्वा दत्तमस्ति.
दत्तमस्ति. हा सत्यं.
भवती मा पश्यतु.
हा उषा भगिनी अग्रे.
सा गीतं शृणोति नृत्यति. सा गीतं श्रुत्वा नृत्यति.
हा समीचीनं. शुभा भगिनी.
अध्यापकः पाठं पाठयति प्रश्नं पृच्छति. अध्यापकः पाठं पाठयित्वा प्रश्नं पृच्छति.
समीचीनं भगिनी. हा अस्तु. गीताञ्जलि भगिनी उक्तवती वा न न वदतु भगिनि.
छात्रः वाक्यं वदति अर्थं जानाति. छात्रः वाक्यम् उदित्वा अर्थं जानाति.
हा समीचीनं. हा अत्र वयं गतवर्गे अपि दृष्टवन्तः खलु तत्र त्वान्तरूपे तत्र रूपद्वयं भवति. कुत्रचित् ईकारः आगच्छति इति. यत्र ईकारः आगच्छति तत्र वयं तस्य नाम किम् आसीत् धातोः नाम?
इडागम.
इडागमः इति ईकारस्य आगमनं. किन्तु धातोः नाम यत्र ईकारः इडागमः भवति ईकारः आगच्छति सेट् धातुः. अपि यत्र न भवति अनिट् इति भवति. अस्तु तत्र प्रथम खादित्वा तत्र सेट् वा अनिट् वा खादित्वा स्नात्वा अनिट् अस्तु. गत्वा अस्तु. पठित्वा सेट् अस्तु. पुनः खादित्वा अस्ति. लिखित्वा अस्तु. नत्वा
अनिट्
श्रुत्वा
अनिट्
अस्तु. पाठयित्वा अस्तु. उदित्वा सेट् अस्ति. अस्तु समीचीनम्. अस्तु अग्रिमे पुटे तत्र पुनः अनेकानि रूपाणि दत्तानि सन्ति. किन्तु तत्र सामान्यरूपम् अपि विशेषरूपम् इति किञ्चित् सङ्ग्रहणं कृतमस्ति. तत्र प्रथमसमूहे सर्वं तत्र किमस्ति दातवः कीदृशः दातवः सन्ति प्रथमसमूहे अग्रिमे पुटे. तत्र चतुर्दश दातवः सन्ति प्रथमसमूहे. कीदृशदातवः ते सर्वे हसति भवति हसित्वा क्रीडति भवति क्रीडित्वा भ्रमति इति भवति. हा सेट् दातवः. सेट् दातवः इति. तदनन्तरं तत्र प्रायशः तत्र कुत्र तत्र सर्व अन्यं सर्वम् अनिट् एव इति मन्ये खलु. तत्र क्रीणाति तत्र क्री धातुः अस्ति अथवा अतः क्रीत्वा इति अस्ति. नयति नी धातुः नीत्वा इति अस्ति. अतः तत्र प्रायशः हा केवलं तत्र तिष्ठति इति तत्र स्थित्वा तत् किञ्चित् विशेषः इति मन्ये. किन्तु अन्ये सर्वे प्रायशः अनिट् एव अस्ति इति चिन्तनम्. अस्तु अग्रे गच्छामः. तत्र एतत् कोष्टकम् उपयुज्य अग्रिमे पुटे यत् दत्तमस्ति तत् कुर्मः. अस्तु तर्हि तत्र नरेश महोदय आरम्भं करोति वा अग्रिमे पुटे.
अग्रिमपुटे पुस्तके
न न न अत्र करपत्रे एव तत्र पुटत्रयम् अपि तदनन्तरम् एकं पुटम् अस्ति महोदय.
अधो लिखितवाक्यानि त्वां तेन पदेन योजयन्तु. छात्रः पाठं पठति, टिप्पणीं लिखति. छात्रः पाठं पठित्वा टिप्पणीं लिखति. कृषकः भूमिं खनति, सस्यं रोपयति. कृषकः भूमिं खनित्वा सस्यं रोपयति.
हा इति तत्र खनित्वा इति दत्तमस्ति खलु. हा खन् इति धातु सप्तमं प्रथमसमूहे खन् धातुः खनित्वा सेट् अस्ति. हा तत्र शोभा भगिनी भवती एतादृशवाक्यं कृतवती खलु गतवर्गे.
सा कृष्ट्वा इति कृतवती, कर्षति इत्यस्य
कृष्ट्वा कृतवती महोदय.
हा हा किन्तु तत्र भूमि इति प्रश्नः आसीत् खलु. हा अतः अस्तु किन्तु तत्र इदानीं
कर्षति कृष्ट्वा आसीत्.
हा किन्तु एतादृशवाक्यम् आसीत् भवत्याः. अस्तु अस्तु समीचीनम्. अस्तु अग्रे रघुपति महोदय अग्रे. आचार्यः
कुत्र महोदय?
तृतीयपुटे करपत्रे तृतीयपुटे 157 न किन्तु करपत्रे करपत्रे तृतीयपुटं महोदय.
अत्र भूमिमेव सम्यक् अस्ति महोदय. अहं पृथ्वीम् इति लिखितवती द्वितीयवाक्ये. अत्र कृषकः भूमिम् इति एव दत्तम्.
अतः भगिनि अतः अहं चिन्तयामि अत्र भूमिम् इति समीचीनम् अस्ति. अपि खनति अपि समीचीनम् अस्ति इति.
अपि
अतः यत्
कृष्ण आचार्यः पाठं पाठयति, प्रश्नं पृच्छति. इदानीं क्वान्तरूपम् अस्तु. आचार्यः पाठं पाठयित्वा प्रश्नं पृच्छति.
तत्र मम चिन्तनमस्ति यत्र पाठयति इति प्रेरणार्थकदातवः सन्ति तत्र सर्वदा सेट् दातवः इति मन्ये. तत्र इकारः आगच्छति एव. कारयित्वा पाठयित्वा स्थापयित्वा इति श्रावयित्वा इति. अतः तत्र तत्र सर्वत्र सेट् इति तत्र इकारः आगच्छति इति. अस्तु समीचीनं महोदय. अस्तु अग्रे वंशीसुधा भगिनी.
चतुर्थः कृष्णः रथं स्थापयति, अर्जुनम् उपदिशति. कृष्णः रथं स्थापयित्वा अर्जुनम् उपदिशति.
हा समीचीनं भगिनि. शुभा भगिनी अग्रे.
आरक्षकः धावति, चोरं गृह्णाति. आरक्षकः धावित्वा चोरं गृह्णाति.
हा समीचीनं भगिनि. हा पूर्णेन्दु महोदय.
कविः काव्यं लिखति, धनं प्राप्नोति.
हा समीचीनं महोदय. अस्तु अग्रे उमा मीनाक्षी भगिनी.
वानरः फलं खादति, धावति. वानरः फलं खादित्वा धावति.
हा इदानीं तत्र वानरः इति स्थाने एकवचने अस्ति, बहुवचने रूपं किं भवति?
वानराः.
हा वानराः फलं
खादित्वा धावन्ति.
हा तत्र खादित्वा एव भवति खलु, तत्र तस्य परिवर्तनं न भवति. धावति इति तस्य परिवर्तनं भवति, खादित्वा इति पदस्य परिवर्तनं न भवति. सत्यं भगिनि. हा बृहत् फलम् अस्ति इति किन्तु तदपि समीचीनमेव. हा अस्तु वानरः फलानि खादति धावति इति स्वीकुर्मः, तदनन्तरं परिवर्तनं कुर्मः. अस्तु समीचीनं भगिनि. अस्तु अग्रे उषा भगिनी.
अष्टमबिन्दुः शिशुः पतति रोदनं करोति. शिशुः पतित्वा रोदनं करोति.
हा, तत्र रोदनं करोति इति स्थाने एकं क्रियापदं भवति चेत्
शिशुः पतति रोदनं करोति.
न न, रोदनं करोति इति मास्तु, तत्र रोदनं करोति इति तत्र
शिशुः पतति रोदनं करोति. अन्यवाक्यं किम् अस्ति महोदय? शिशुः पतति,
शिशुः पतित्वा
पतित्वा
रोदनं करोति, अथवा शिशुः पतित्वा रोदिति 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 इति अस्ति. हा, तत्र यदि तत्र रोदनं करोति इति तादृशं स्वीकुर्मः, तत्र धावति स्थाने धावनं करोति इति तादृशं स्वीकुर्मश्चेत् तत्र किं सर्वदा क्रियापदं करोति एव भवति. अतः एतत् कृत्वा एतत् करोति, एतत् कृत्वा एतत् करोति इति भवति. अतः हा, अस्तु, तावदेव.
निद्राम् अपि करोति महोदय?
हा, रुदित्वा, तत्र रुदित्वा इति
रुदित्वा, शिशुः रुदित्वा निद्रां करोति,
अथवा निद्राति,
रुदित्वा निद्राति,
निद्राति इति. समीचीनं भगिनि, हा समीचीनम्, अस्तु. अग्रे शुभा भगिनि.
पितामहः कथां कथयति प्रश्नं पृच्छति. पितामहः कथां कथयित्वा प्रश्नं पृच्छति.
हा समीचीनं भगिनि, अस्तु. अग्रे नरेश महोदय.
बालिका नृत्यति, जनान् तोषयति. बालिका नृत्वा,
न तत्र अस्ति, तत्र पुटे पूर्वस्मिन् पुटे दत्तमस्ति
नर्तित्वा,
नर्तित्वा इति.
बालिका नर्तित्वा जनान् तोषयति.
हा समीचीनं महोदय, अस्तु. अग्रे गीतांजलि भगिनी.
जननी स्नानं करोति पाकं करोति. जननी स्नानं कृत्वा पाकं करोति. छात्रः अध्यापकं पश्यति नमस्करोति. छात्रः अध्यापिकम् अध्यापकं दृष्ट्वा नमस्करोति.
हा समीचीनं भगिनि, हा अस्तु. रघुपति महोदय अग्रे.
एकनिमिषं महोदय.
हा
क्षम्यताम्. कुत्र अस्ति महोदय?
तत्र छात्रः इति कृतं, तत्र अधोभागे महोदय.
युवकः, युवकः, अस्तु अस्तु, युवकः चित्रालयं गच्छति, चित्रं पश्यति. युवकः चित्रालयं गत्वा चित्रं पश्यति.
हा समीचीनं महोदय, अस्तु. अग्रे वंशीसुधा भगिनी.
आं महोदय. बालिका गीतं शृणोति नृत्यति. बालिका गीतं श्रुत्वा नृत्यति.
हा समीचीनं भगिनी. शुभा भगिनी अग्रे. बहुवचनरूपम्
बालिकाः गीतं श्रुत्वा नृत्यन्ति.
नृत्यन्ति इति समीचीनं भगिनि.
बालकः जननीं स्मरति रोदनं करोति. बालकः जननीं स्मृत्वा रोदनं करोति अथवा रुदति, रुदिति,
रोदिति, रुदिति, रोदिति, क्षम्यतां, रोदिति, रोदिति, तत्र रुदित्वा इति मनसि स्थापितम् आसीत्. अस्तु, अग्रे पूर्णेन्दु
महोदय. त्वं दुःखं पिबसि क्रीडसि. त्वं दुःखं पीत्वा क्रीडसि.
क्रीडसि, समीचीनं महोदय. हा अस्तु, अग्रे उमा मीनाक्षी भगिनी. न श्रूयते भगिनि, उमा मीनाक्षी भगिनी अस्ति वा? प्रायशः अस्ति इति मन्ये. अस्तु, किमर्थं म्यूट् मध्ये अस्ति सा? अस्तु, न जानामि. अस्तु, उषा भगिनी अग्रे.
आं महोदय.
शिष्यः
सप्तदश सप्तदश बिन्दुः बिन्दुः अस्ति वा महोदय बिन्दुः अस्ति वा
बिन्दुः
बिन्दुः सप्तदश बिन्दुः शिष्यः प्रश्नं पृच्छति उत्तरं जानाति शिष्यः प्रश्नं पृष्ट्वा उत्तरं जानाति
हा समीचीनं भगिनि शोभा भगिनी अग्रे
भक्तः देवं देवं नमति प्रार्थनां करोति भक्तः देवं नत्वा प्रार्थयति इति वक्तुं शक्नुमः वा महोदय
सत्यं भगिनि प्रार्थयति इति रूपम् अस्ति क्रियापदम् अस्ति
अस्तु महोदय प्रार्थनां करोति अथवा प्रार्थयति
प्रार्थयति इति इति तदपि रूपम् अस्ति भगिनि प्रार्थयति इति
बहुवचने करोमि वा
अस्तु भगिनि भक्ताः
भक्ताः देहं नत्वा प्रार्थयन्ति
प्रार्थयन्ति
प्रार्थनां कुर्वन्ति
प्रार्थनां कुर्वन्ति समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
युवकः दुरभ्यासं त्यजति सज्जनः भवति युवकः दुरभ्यासं त्यक्त्वा सज्जनः भवति
हा समीचीनं महोदय तदेव तत्र बहुवचने
युवकाः दुरभ्यासं त्यजन्ति सज्जनः भवन्ति
सज्जनाः भवन्ति
सज्जनाः भवन्ति युवकाः दुरभ्यासं त्यक्त्वा सज्जनाः भवन्ति
हा समीचीनं महोदय अस्तु गीतांजलि भगिनी अग्रे
बालकाः क्रीडन्ति गृहं गच्छन्ति बालकाः क्रीडित्वा गृहं गच्छन्ति
एकवचने
बालकः क्रीडति गृहं गच्छति बालकः क्रीडित्वा गृहं गच्छति
गृहं गृहं
गृहं गच्छति
गृहं गच्छति समीचीनं अस्तु सर्वं सरलमेव अस्ति सरलवाक्यमस्ति केवलम् अभ्यासार्थं तत्र बहुवारं मनसि एतत् स्थापितं भवेत् इति तावदेव अस्तु अग्रे रघुपति महोदय अग्रिमे पुटे महोदय
आम् महोदय उदाहरणानुगुणं वाक्यानि योजयन्तु सः विद्यालयं गच्छति पाठं पठति सः विद्यालयं गत्वा पाठं पठति द्वितीयमस्ति बालिका फलं खादति जलं न पिबति बालिका फलं खादित्वा जलं न पिबति
जलं न पिबति इति समीचीनम् अस्तु अग्रे वंशी सुधा भगिनी
रमेशः दुग्धं पिबति शयनं करोति रमेशः दुग्धं पीत्वा शयनं करोति
शुभा भगिनि
अहं श्लोकं वदामि अर्थं बोधयामि अहं श्लोकं वदित्वा अथवा
उदित्वा
उक्त्वा
अस्ति वच् धातोः वच् धातोः अस्ति उक्त्वा वद् वदति इति उदित्वा इति एव अस्ति खलु भगिनि
उदित्वा एव अस्ति 129 पेज् मध्ये अस्ति
तत्र
वदति उदित्वा
वदति उदित्वा इति अस्ति
यत्र कित् अस्ति तत्र सम्प्रसारणं भवति उकारस्य तानि वकारः भवति तान्तरूपमस्ति अतः
पुनः वदतु महोदय
कित् अस्ति त्वान्तरूपमस्ति कित् अस्ति ककार अस्ति इत्संज्ञा अस्ति अतः तत्र सम्प्रसारणं भवति यकारस्य स्थाने इकारस्थाने एकारः उकारस्थाने वकारः इति तादृश एव वयं दृष्टवन्तः खलु एण् सन्धि तत्र उल्टा भवति
परन्तु निमित्तं किम् अस्ति महोदय
कित् अस्ति ककारः अस्ति अतः
ओ
किञ्चिदेव जानामि परन्तु तत्र सर्वत्र भवति
पुनः एकवारं शुभभगिनी वाक्यं वदतु तत्र
अहं श्लोकम् उदित्वा अर्थं बोधयामि
समीचीनं भगिनि अस्तु अग्रे पूर्णेन्दु महोदय
अन्तिमबिन्दु सः पुस्तकं पठति भोजनं करोति सा पुस्तकं पठित्वा भोजनं करोति
हा इति समीचीनम् इदानीं पश्यामः उमा मीनाक्षि भगिनी तत्र म्यूट् इति एव अस्ति खलु तत्र अस्तु 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 भगिनि नमस्कारः
नमस्कारः
अन्तिमपुटे
अन्तिमपुटस्य परन्तु नम्बर् विच्
षष्ठ
अहं कार्यं करोमि विद्यालयं गच्छामि अहं कार्यं कृत्वा विद्यालयं गच्छामि
समीचीनं भगिनि अस्तु अग्रे उषा भगिनि
बिन्दुः ते चित्रं पश्यन्ति आनन्दम् अनुभवन्ति ते चित्रं दृष्ट्वा आनन्दम् अनुभवन्ति
हा अस्तु शोभा भगिनि
भवन्तः गीतं शृण्वन्ति चायं पिबन्ति भवन्तः गीतं श्रुत्वा चायं पिबन्ति
समीचीनम् अस्तु नरेश महोदय
वयं धनं यच्छामः दद्मः वस्तूनि क्रीणीमः वयं धनं
दद्मः इति रूपं स्वीकरोतु
दत्त्वा वयं धनं दत्त्वा वस्तूनि क्रीणीमः
हा समीचीनं महोदय अस्तु अग्रे गीतञ्जलि भगिनि
एकं प्रश्नं महोदय तत्र यच्छामः इति पदं स्वीकुर्मः चेत् त्वान्तरूपं किं भवति महोदय
तत्र प्रायशः तस्य त्वान्तरूपं दत्त्वा इति एव अस्ति तस्य स्वयं त्वान्तरूपं प्रायशः नास्ति इति मन्ये महोदय एतादृश भवति केचन धातोः त्वान्तरूपं अन्यस्य त्वान्तरूपम् एव इति कुत्रचित् भवति तादृश अत्रापि तादृश एव स्यात् इति मम इति मन्ये तत्र यच्छामः इति प्रायशः तत्र तस्य त्वान्तरूपं नास्ति इति तस्य प्रत्येकत्वान्तरूपं नास्ति इति मन्ये महोदय किन्तु एकवारं दृष्ट्वा
महोदय ददाति अपि च यच्छति द्वयोः एकमेव त्वान्तरूपम् अस्ति
अत्र इति चिन्तनं भगिनि अतः दत्त्वा इति अस्ति सत्यं किन्तु यच्छति इति तस्य तु अन्यत्र धातुः अस्ति खलु यच्छति
यच्छति अपि दाधातु महोदय परन्तु औपदेशिक तु दान दत्मः औपदेशिकधातु अस्ति दुडाय दुदाय परन्तु यच्छति औपदेशिकधातुः अस्ति दान औपदेशिकरूपे द्वयं भिन्नम् अस्ति परन्तु
तत्र तयोः त्वान्तरूपम् एकमेव अस्ति इति मन्ये
एकं
धात्वादेशः भवति कुत्रचित् स्थलेषु भिन्न आदेशः भवति
अतः तत्र एतादृशं भवति तत्र पेज् 129 मध्ये एव वयम् एतादृशं दृष्टवन्तः खलु तत्र पश्यतु तत्र किं तत्र हा उक्त्वा इति ब्रूते इति क्रियापदस्य अपि उक्त्वा इति रूपम् अस्ति त्वान्तरूपम् अपि वच् वक्ति इति तस्य अपि वच् धातोः रूपमपि तस्य त्वान्तरूपमपि उक्त्वा एव अस्ति अतः तत्र हा एतादृशः भवति महोदय तत्र त्वान्तरूपं समानं भवति धातो दातवः भिन्नाः सन्ति यद्यपि दातवः भिन्नाः सन्ति
महोदय ब्रू धातु ब्रूते इति वच् धातु वदति वच्
न वदति न तद् वद् धातुः अस्ति
धातु लट् रूपं किं वच् धातु लट् रूपं
न वद् धातुः लट्लकरूपं वदति तस्य त्वान्तरूपम् अस्ति उदित्वा इदानीं तत्र वच् धातुः अस्ति, वच् धातुः लट्लकरूपम् अस्ति, वक्ति वक्ति वच्मि उत्तमपुरुषे, तस्य तत्र ऊचुः इति भवति खलु, ऊचुः इति
लिट्लकारे ऊचु,
हा देवाः ऊचुः इति
भवति,
हा तत्र किन्तु तद् वच् धातुः अस्ति, तस्य त्वान्तरूपम् अस्ति उक्त्वा इति.
दातो यदि भवादिगणे अस्ति तत्र यच्छति अस्ति, यदि दातो जुहोत्यादिगणे तत्र ददाति अस्ति महोदय, गणः भेदः अस्ति अतः द्वित्वं भवति, ददाति आगच्छति, भुवादिगणे यच्छति इति रूपं भवति, दातो अदादिगणे अपि अस्ति तत्र दाति इति रूपं भवति महोदय, गणभेदः.
किन्तु तत्र अधादिगणे तत्र तस्य त्वान्तरूपं किम् अस्ति,
दाप् इति अस्ति महोदय,
त्वान्तरूपं तत् प्रायशः दत्त्वा एव अस्ति इति मन्ये,
दत्त्वा
एव इति मन्ये, अतः तत्र एतादृश भवति, अतः तत्र एकः अंशः तत्र स्मर्तव्यः अस्ति, तत्र क्रियापदेन क्रियापदात् त्वान्तरूपं कर्तुं शक्नुमः सुलभतया, किन्तु त्वान्तरूपेण क्रियापदं किम् इति निर्णेतुं सर्वदा सुलभतया न कर्तुं शक्नुमः, यतः तत्र क्रियापदद्वयं भवितुम् अर्हति अथवा क्रियापदत्रयं भवितुम् अर्हति इति कृत्वा खलु, अत्र यच्छति अथवा ददाति न जानीमः, यदि दत्त्वा इति अस्ति चेत् न जानीमः किम् आसीत् क्रियापदम् इति. अस्तु पूर्णेन्दु महोदय समीचीनं वा? तत्र केवलं सरलरूपेण एव उक्तम् अस्ति उत्तरं, किन्तु तत्र अन्यत् जानामि, तत्र प्रायशः अन्यत् किमपि अस्ति तत्र वक्तव्यं, किन्तु अहं न जानामि किमर्थं तत्र रूपसामान्यं भवति त्वान्तरूपस्य इति, तत्र प्रायशः दृष्ट्वा द्रष्टव्यमस्ति महोदय. अस्तु अस्तु तर्हि उमा मीनाक्षी भगिनी अग्रे.
ओके okay.
तत्र किं दद्मः दद्मः इति आसीत् अत्र दशम,
दद्मः समाप्तं, सः फलानि नयति जनन्यै ददाति, दानार्थं चतुर्थी, ओके, सः फलानि नीत्वा जनन्यै ददाति,
हा समीचीनं भगिनि, हा अस्तु अग्रे तत्र गीतांजलि भगिनि.
ताः संस्कृतं जानन्ति, सम्भाषणं कुर्वन्ति, ताः संस्कृतं ज्ञात्वा सम्भाषणं कुर्वन्ति,
हा समीचीनं, हा अस्तु तत्र ओ सः दुर्गुणः त्यजति सज्जनः भवति पूर्वमेव कृतवन्तः, अग्रिमं कुर्मः तत्र रघुपतिमहोदय, तत्र दुर्गुणः इति त्यजामः पूर्वं कृतं महिलाः इति. सः तदेव वाक्यम् अतः रघुपतिमहोदय अग्रिमं करोति वा, प्रायशः नास्ति, अस्तु वंशी स्थितं भगिनि अग्रे.
अस्तु
अस्तु अस्तु
महिलाः गीतं गायन्ति तदेव
वा,
महिलाः गीतं गायन्ति पूजां कुर्वन्ति, महिलाः गीतं अत्र गीत्वा
गीत्वा अस्ति इति मन्ये, गीत्वा इति प्रायशः अत्र
दत्तमस्ति
पुस्तके अपि
गायति गीत्वा
गीत्वा अस्ति खलु तत्र
गीत्वा महोदय
किन्तु तत्र कोष्टके दत्तमस्ति इति तत्र पश्यामि कोष्टके नास्ति खलु करपत्रे यत् कोष्टकम् आसीत् तत्र नास्ति खलु तत्र अस्तु गीत्वा इति चिन्तनं
क्वचित् स्थलेषु आकारः अस्ति चेत् ईकारः भवति वयं दृष्टवन्तः पा धातु अस्ति पीत्वा अथवा तत्र गा भवति गीत्वा पूजां कुर्वन्ति
समीचीनं महोदय अस्तु वंशीसुरभगिनी अग्रे
आम् महोदय वैद्याः औषधं यच्छन्ति धनं स्वीकुर्वन्ति वैद्याः औषधं दत्त्वा धनं स्वीकुर्वन्ति
हा इति मन्ये भगिनि तत्र तत्र यक्त्वा इति तादृशरूपं नास्ति नास्ति धन्यवादः भगिनि अस्तु अग्रे शुभा भगिनि
पितामहः रामायणं पाठयति अर्थं वदति पितामहः रामायणं पाठयित्वा अर्थं वदति
हा समीचीनं भगिनि अस्तु पूर्णेन्दु महोदय
षोडशबिन्दुः
षोडश सत्यं सत्यं
छात्रः चिन्तयति उत्तरं लिखति छात्रः चिन्तयित्वा उत्तरं लिखति
हा समीचीनं महोदय अस्तु अग्रे उषा भगिनी
सप्तमदशबिन्दुः जननी पुत्रं ताडयति दुःखम् अनुभवति जननी पुत्रं ताडयित्वा दुःखम् अनुभवति
हा समीचीनं शोभा भगिनी अग्रे
क्रीडापटुः क्रीडति पदकं प्राप्नोति क्रीडापटुः क्रीडित्वा पदकं प्राप्नोति
हा समीचीनं भगिनि नरेश महोदय
एताः पूजां कुर्वन्ति प्रसादं स्वीकुर्वन्ति एताः पूजां कृत्वा प्रसादं स्वीकुर्वन्ति
हा समीचीनं महोदय अस्तु
महोदय तत्र यथा पा धातु अस्ति अत्र पिब इति भवति खलु तत्र दान् धातु अस्ति तत्र यच्च इति आदेशः भवति लट् लट् लकारे अत्र सूत्रमस्ति पाकराद् मास्ता न दान दृश्च सत्ति सदसदां पिबजिक्रदमतिष्ठमन यच्च पश्यच्च दोषीयसीदाः इति सूत्रमस्ति अतः तत्र लट् लकारे क्षितिपरे शप्रत्यये परे एव तत्र धात्वादेशः भवति पास्थाने पिब अथवा दाण्स्थाने यच्च इति सर्वत्र बाकि सर्वत्र यत् मूलधातुः अस्ति तदेव भवति अतः दत्त्वा इति भवति यच्त्वा न भवति
कुत्र कुत्र तत्र केवलं एतत् सर्वं धा धातुः खलु
न न पा यत्र लट् लकाररूपे तत्र धात्वादेशः अस्ति एकसूत्रमस्ति 7378 अस्ति तत्र पास्थाने पिब घ्रास्थाने जिघ्र इति द्मास्थाने धम स्थास्थाने तिष्ठ इति तदेव तथैव दाण्स्थाने यच्छ इति दृष्टाने पश्यति दृष्ट्वा इति भवति पश्यति इति भवति दात्वादेशः भवति अतः एव
संख्या किम् आसीत् महोदय
7.3.78 वयं दृष्टवन्तः अस्माकं किञ्चित् अपि इदानीं प्रचलति तस्य विषये व्याकरणवर्गे
अस्तु महोदय
धन्यवादः
बृहत् सूत्रमस्ति महोदय
सम्यक् अस्ति 7.3.78 सप्तम अध्यायस्य तृतीयपद 7.28 अष्टसप्तति
अस्तु
प्राक्रात्मा
तिष्ठति अस्तु 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 महोदय धन्यवादः अस्तु द्मादमति इति अस्तु समीचीनं महोदय धन्यवादः अस्तु पूर्णेन्दु महोदय तत्र सङ्ख्यां स्मरतु अष्टाध्यायी मध्ये सेवेन् सेवेन् त्री सेवेण्टि एय्ट् अष्टाध्यायी डाट् काम् मध्ये सुलभतया लभ्यते महोदय सूत्रपाठे धन्यवादः महोदय रघुपति महोदय धन्यवादः समीचीनमस्ति अस्तु तत्र कः वदन् आसीत्
अहं वदामि
भगिनी वदतु भगिनि
अर्चकः देवम् अर्चति प्रार्थनां करोति अर्चकः देवम् अर्चयित्वा प्रार्थनां करोति
हा इति समीचीनम् इति मन्ये भगिनि अर्चयित्वा इति हा अथवा अर्चित्वा वा तत्र किम् अस्ति सेट् धातुः अथवा अनिट् इति अर्च
भूता देव न अर्चति अर्चयति द्वयमपि अस्ति
अर्चयति तु अर्चयित्वा अस्ति किन्तु
अर्चति
केवलम् अर्चति इति एव अस्ति अर्चति सेट् इव सेट् एव अस्ति भगिनि अतः अर्चित्वा अर्चित्वा इति अर्चित्वा इति अर्चित्वा इति मन्ये
महोदय अर्चति अर्चयति अर्थभेदः अस्ति वा महोदय
तत्र पूजायाम् एत एव अस्ति प्रायशः तत्र किम् अर्चयति अर्चति प्रायशः समानार्थकम् इति मन्ये भगिनि
अन्येकप्रश्नः
नास्ति वा महोदय यथा
निजन्तरूपमस्ति तत्र द्वयमपि भवितुमर्हति अहं चिन्तयामि चोरयति चोरयति अस्ति चोरयति स्व आत्मानं कृते चोरयति अपि अन्येषां द्वारा चोरयितुं तत् प्रेरणार्थकनिच् तद् भवति अतः अर्चयति अर्चति इति द्वयमपि साधु चिन्तयामि
तत्र
अर्चयति प्रेरणार्थकमस्ति वा
भवति खलु भवितुमर्हति अहं चिन्तयामि अहं न जानामि भवितुमर्हति खलु यथा चोरयति चोरः चोरयति अथवा आरक्षकाः चोरेण चोरयति भवितुमर्हति अहं न जानामि स्वास्थ्ये अपि
तत्र अर्चति इति भू भूवादिगणे अस्ति अपि अर्चति धातुः दशमगणे अपि अस्ति तत्र रूपं दत्तमस्ति अर्चयति अपि अर्चति अतः तत्र सन्दर्भानुगुणं तत्र अर्थभेदः भवति किन्तु समानार्थकः अपि भवितुम् अर्हति अतः अस्तु
अत्र द्वितीयवाक्यमस्ति बालिका फलं खादित्वा जलं न पिबति इति यदि बालिका फलं न खादति जलं पिबति इति अस्ति चेत् कथं वक्तव्यं बालिका फलं न खादति न खादित्वा
बालिका फलं न खादित्वा जलं पिबति
तत् सम्यक् एव
एतादृशवाक्यं मया श्रुतमस्ति भगिनि अतः अहं चिन्तयामि तत्र श्रुतम् इति कृत्वा अहं चिन्तयामि एतद् सम्यक् एव अस्ति इति बालिका फलं न खादित्वा जलं पिबति इति तदपि साधु एव
बालिका फलं विना खादित्वा अपि सम्यक् वा महोदय तत्र विना दृष्ट्वा
विना पूर्वं तृतीया भवति वा अथवा
द्वितीया तृतीया पञ्चमी
अस्तु फलं विना तत्र फलं विना खादित्वा तत्र तत्र प्रायशः फलं विना खादित्वा किञ्चित् अर्थभेदः भवति खलु तत्र इत्युक्ते तत्र सा खादति किन्तु फलं न खादति इति किन्तु अत्र वयं किं वक्तुम् इच्छामः तत्र किमपि न खादति किमपि न खादति तद् तद् हा यदि वक्तुम् इच्छामः तत्र केवलं बालिका फलं न खादित्वा जलं पिबति इति अतः अस्तु अस्तु भगिनि अस्तु तर्हि तत्र समापितवन्तः एतत् सुलभ अभ्यासः किन्तु बहुवारं त्वान्तरूपं भवतु इति कृत्वा अस्तु इदानीं तत्र
महोदय भवान् उक्तवान् अहं श्रुतं
मया श्रुतं मया श्रुतं
श्रुतम् इति रूपं किं महोदय
पठितम् इति तत्र पुस्तकं पठितम् अहं पुस्तकं पठामि मया पुस्तकं पठितं
मया पुस्तकं पठ्यते
तत्र तत्र एतत् कीदृशपुस्तकम् एतत् कीदृशं पुस्तकं मया पठितं पुस्तकम् इति तादृश मया श्रुतं
पठितः पठिता पठितम् इति भवति
वा सत्यं भगिनि सत्यं
पुल्लिङ्गं
सत्यं भगिनि
धन्यवादः
अस्तु तर्हि अतः अग्रे गन्तुं शक्नुमः तत्र अग्रे अस्ति ल्यप् प्रत्ययान्तानि एतावत् सर्वाणि क्रियापदानि तत्र उपसर्गरहितक्रियापदानि उपसर्गः अस्ति चेत् त्वान्तरूपं न भवति तत्र ल्यबन्तरूपं भवति तत्र गच्छति गत्वा आगच्छति आगत्य इति अभ्यासपुस्तके अपि दृष्टवन्तः तस्य एव इदानीम् अभ्यासः भवति अस्तु तत्र अग्रिमपुटे 134 मध्ये तत्र सम्भाषणम् अस्ति धृतराष्ट्रः अपि सञ्जयः कस्य प्रियः धृतराष्ट्रः कस्य प्रियः सञ्जयः इति यदि अस्ति चेत् ते कर्तुं शक्नुवन्ति अस्तु अस्तु शिवा भगिनी सञ्जयः प्रियः इति आवश्यकं नास्ति कः अथवा का अस्तु भगिनि शोभा भगिनी धृतराष्ट्रः अस्तु अस्तु
एतत् सम्भाषणम् उच्चैः पठता जानीत धृतराष्ट्रः सञ्जय भगवतः विश्वरूपम् अवलोक्य अर्जुनः किम् अकरोत्
राजन् अत्यद्भुतं तत् स्वरूपं वीक्ष्य पार्थः अवेपत अञ्जलिं निबध्य भीतः सः कृष्णं प्रणम्य सगद्गदम् अवदत्
सञ्जय भगवन्तं संस्कृत्य पार्थः किम् अवदत् संस्तुत्य क्षम्यताम् संस्तुत्य पार्थः किम् अवदत्
महाराज अदृष्टपूर्वं रूपम् अवेक्ष्य भीतः सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान् हे राजन् हरेः तत् अद्भुतं रूपं संस्मृत्य यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मः च भवति इति अहं मन्ये
सञ्जय गीतोपदेशं निशम्य नष्टमोहः पार्थः अन्ये पाण्डवाः च किं कृतवन्तः
राजन् तदनन्तरम् अर्जुनः भूमौ स्थितं गाण्डीवं स्वीकृत्य धृतवान् गाण्डीवधरं पार्थं सन्दृश्य सर्वे तत्र आगत्य स्थिताः युधिष्ठिरः स्वस्य कवचं विसृज्य वरायुधं निक्षिप्य क्षिप्रं रथात् अवरुह्य पद्भ्यामेव पितामहम् अभिप्रेक्ष्य अगच्छत् अन्ये अपि राजानः
तम् अनुसृत्य गतवन्तः.
धन्यवादः. अस्तु, तत्र सम्भाषणम् अग्रिमवर्गे तत्र किं किम् अस्ति इति पङ्क्तिशः पश्यामः, किन्तु प्रथमतया तत्र ल्यबन्तरूपम् इति इदानीं विषयः, तत्र आलोक्य अथवा अवलोकय अवलोक्य इति तत्र यकारः अन्ते अस्ति, अतः तत्र गत्वा इति वा इति अन्ते आसीत्, अत्र यकारः अन्ते अस्ति. निबध्य, वीक्ष्य, प्रणम्य, संस्तुत्य, अवेक्ष्य इति अस्ति. तत्र किञ्चित् प्रयत्नं कुर्मः, तत्र यत् रक्तवर्णे दत्तमस्ति क्रियापद, यानि क्रियापदानि रक्तवर्णे दत्तानि सन्ति, तत्र ल्यबन्तरूपं दत्तमस्ति, तत्र उपसर्गः अस्ति. उपसर्गः कः इति तत्र पश्यामः वा, तत्र आलोक्य इति तत्र उपसर्गः कः? अवलोक्य इति अस्ति. अस्तु अस्तु, मम पुस्तके आलोक्य इति अस्ति, अवलोक्य क्षम्यताम्. हा, अवलोक्य इति तत्र किमस्ति? हा, किन्तु प्रायशः तत्र नूतनमुद्रणे अवलोक्य इति अस्ति इति मन्ये भगिनि. हा, तत्र अवलोक्य अस्ति चेत् तत्र अव इति उपसर्ग अस्ति. हा, तदनन्तरं वीक्ष्य इति तत्र तत्र उपसर्गस्य के के उपसर्गाः इति वयं जानीमः खलु, तत्र कुत्र अस्ति, तत्र कस्मिन् पुटे अस्ति उपसर्गः, कुत्र दृष्टवन्तः वयं पूर्वं दृष्टवन्तः खलु तत्र? हा
महोदय,
93 मध्ये अस्ति. हा, 93 मध्ये अस्ति. हा, तत्र प्र पर अप् सम् अनु अव निस् निर् दुस् दुर्वि आङ् नि अति अपि अति सु उत् अभि प्रति परि उप् उप. अस्तु, तर्हि तत्र किमस्ति, तत्र अवलोक्य मध्ये अव इति अस्ति, वीक्ष्य इति तत्र वि इति अस्ति, निबध्य इति तत्र नि इति अस्ति. अस्तु अस्तु, प्रणम्य मध्ये प्र इति अस्ति. अस्तु, तत्र णत्वं भवति, तत्र प्र इति रेपः अस्ति, नमति इति तत्र अत्र अत्र रेपः अस्ति, अतः नकार णत्वं भवति. संस्तुत्य तत्र सम् इति अस्ति, सत्यं भगिनि. हा, स्तौति इति प्रायशः अस्ति खलु क्रियापदं, स्तौति
लट्
हा लट् लकाररूपं स्तौति इति अस्ति खलु?
स्तौति अस्ति वा महोदय?
स्तुति इति हा हा स्तौति भगिनि, स्तु धातुः, धातु अस्ति स्तु, किन्तु रूपम् अस्ति स्तौति इति मन्ये.
स्तुतिः किं रूपम् अस्ति महोदय?
स्तुतिः अस्ति यद् यद् येन वयं स्तुतिः अस्ति, तत्र किं
स्तोत्रम्
स्तोत्रम् इति तद्, किन्तु क्रियारूपं नास्ति तत्.
स्तुतिः कृतवान् इति
स्तुतिः कृतवान्, किन्तु तत् तम् उपयुज्य वयं सः स्तौति सः स्तुतिं वदति, तेन सः देवं स्तौति.
अस्तु,
स्तौति इति रूपम् अस्ति इति मन्ये. स्तु धातुः स्तौति इति रूपम् एकवारं पश्यन्तु, किन्तु स्तौति इति अतः स्तु धातुः एव. अस्तु, तदनन्तरम् अवेक्ष्य इति तत्र अव अव इति अवयोगः ईक्ष् धातुः. तदनन्तरं संस्मृत्य तत्र सम् इति. अस्तु, तदनन्तरं निशम्य इति तत्र
नि.
अस्तु, इदानीं स्वीकृत्य तत्र हा उपसर्गः नास्ति किन्तु तत्र अग्रिमे पुटे पेज् 94 मध्ये दत्तमस्ति खलु तत्र स्वी इति उपसर्गतुल्यः अस्ति इति हा अतः स्वीकरोति उष्णीकरोति सज्जीकरोति तत्र उपसर्गतुल्यः अस्ति एतत् तत्र अलं बहिः अन्तर् अन्तर् इति तादृशं तदपि उपसर्गतुल्यः स्वी इति अत्र अधः स्वीकृत्य इति रूपमस्ति तदनन्तरं सन्दृश्य तत्र सन् पश्यति तत्र आगत्य तत्र आ विसृज्य निक्षिप्य अवरुह्य अभिप्रेक्ष्य अपि अनुसृत्य अनु अस्तु अतः तत्र उपसर्गः अस्ति एव अतः ल्यबन्तरूपं समीचीनम् इति अत्र अस्तु
महोदय उपसर्ग उपसर्गतुल्य पदानि कुत्र सन्ति
अग्रिमे पुटे एव तत्र अग्रिमे अग्रिमविषयः सः एव आसीत् स्वि उष्णी सज्जी तत्र केवलं द्वाविंशतिः उपसर्गाः सन्ति किन्तु उपसर्गतुल्याः केचन सन्ति अन्यानि अन्याः अपि केचन सन्ति अस्तु तर्हि एकवारम् एतद् कोष्टकं यत् अस्ति तद् एकवारं पश्यामः अपि तत्र अधोभागे अवधेयम् इति यदस्ति तदपि पश्यामः तत्र नरेश महोदय पठति वा तत्र
अवधेयम् उपसर्गरहितानि क्रियापदानि गच्छति गत्वा नयति नीत्वा गृह्णाति गृहीत्वा स्मरति स्मृत्वा त्यजति त्यक्त्वा गच्छति गत्वा उपसर्गसहितानि क्रियापदानि आगच्छति आगत्य आनयति आनीय सङ्गृह्णाति सङ्गृह्य विस्मरति विस्मृत्य परित्यज्य अवगच्छति अवगत्य धातुः यदि उपसर्गसहितः भवति तर्हि त्वाप्रत्ययस्य स्थाने ल्यप्रत्ययः भवति आगत्य विस्मृत्य आनीय इत्यादीनि ल्यप् प्रत्ययान्तानि अव्यानि ल्यबन्तानि इत्यपि तेषां नाम
हा धन्यवादः महोदय अस्तु अत्र किं विषयः कः तत्र उपसर्गरहितक्रियापदमस्ति चेत् तस्य त्वान्तरूपं भवति तत्र त्वाप्रत्ययस्य योजनेन त्वान्तरूपं कर्तुं शक्नुमः किन्तु यदि उपसर्गः अस्ति उपसर्गसहितक्रियापदमस्ति चेत् त्वाप्रत्ययस्य योजनं तेन योजनं न भवति किन्तु ल्यप्रत्ययस्य प्रयोगः तत्र भवति अतः रूपं तत्र यकारः क्य अथवा यकारः तादृशः भवति आगत्य विस्मृत्य आनीय इति तत्र ल्यब् प्रत्यय ल्यबन्तम् इति अन्ते ल्यप् प्रत्ययः अस्ति इति कृत्वा ल्यबन्तं त्वाप्रत्ययः अन्ते अस्ति इति कृत्वा त्वान्तम् इति तादृशं भवति ल्यबन्तम् इति अस्तु एतदेव तत्र अग्रिमे वर्गे तत्र सम्भाषणमपि एकवारं पङ्क्तिशः दृष्ट्वा अग्रे ल्यबन्तरूपाणाम् अभ्यासं कुर्मः अस्तु तर्हि प्रश्नः अस्ति वा
महोदय अवगच्छति अस्ति इत्यस्य अवगत्य इति त्वान्तरूपं ल्यपन्तरूपम् अवगम्य इति अपि अस्ति वा अवगम्य इति मया श्रुतम्
अवगम्य अवगत्य अवगम्य
अवगम्य इति अवगमनम् इति तत् भिन्नं गच्छति अर्थे नास्ति
अवगम्य इति रूपम् अस्ति वा इति तत्र तत् ल्यबन्तरूपं किन्तु कस्य क्रियापदस्य इति प्रश्नः अथवा अवगत्य अवगम्य रूपद्वयम् अस्ति वा इति रूपद्वयं नास्ति किन्तु अवगम्य इति अस्ति वा
अस्ति महोदय अवगम्य इति अस्ति अवगतं वा इति अस्ति खलु अवगतम् अवगत्य तद्रूपम् अस्ति अवगम्य
अस्तु एकवारं दृष्ट्वा वदामि
अव इति अस्ति खलु अतः
अव इति अस्ति किन्तु तत्र गत्य अवगत्य इति एव रूपम् अस्ति अत्र अवगत्य इति एव रूपं दत्तमस्ति शुभ भगिनी एकवारं दृष्ट्वा चर्चां वर्गे तत्र प्रायशः अवगत्य अवगम्य समानार्थक
महोदय स्पोकन् संस्कृत मध्ये अवगम्य इति दत्तमस्ति महोदय इन्टेलिजिबल् इति
इन्टेलिजिबल् इति किन्तु तत् नामपदं वा अथवा ल्यबन्तरूपं वा किम् अस्ति तत्र
अड्जेक्टिव् इति अस्ति महोदय
अड्जेक्टिव् अड्जेक्टिव् अस्ति चेत् तत्
नामपदं
न न न लेबन्तरूपं नास्ति लेबन्तं तु अव्ययम् अस्ति अतः तद् विशेषणं न भवितुम् अर्हति हा विशेषणं विशेषणस्य लिङ्गभेदः वचनभेदः सर्वं भवति अतः तद् अव्ययं नास्ति अतः अवगम्य इति अन्यत् अस्ति अवगत्य इति अन्यत् अस्ति अतः धन्यवादः अव्ययमस्ति हा अवगत्य अव्ययमस्ति अवगम्य किम् आसीत् भगिनि तत्
अवगम्य अड्जेक्टिव् अस्ति महोदय
किन्तु अर्थः कः
अर्थः इन्टेलिजिबल्
इन्टेलिजिबल् इति अस्तु भगिनि अस्तु अतः तत्र अस्तु तत्र ओ अस्तु यद् पाठः अवगम् हा तत्र अवगम्यः पाठः आसीत् वा इति अथवा किमपि पाठम् अवगम्य न पाठमवगम्यं नास्ति भगिनि तत्र कीदृशः तत्र कोऽपि प्रवचनम् एतत् चिन्तयतु तत्र किमपि प्रवचनम् अस्ति प्रवचनमस्ति कीदृशं प्रवचनम् अतः तत्र उत्तरं किं भवति अवगम्यं प्रवचनम् अवगम्यं प्रवचनम् आसीत् इत्युक्ते अहम् अवगतवती इण्टेलिजिबल् इति खलु इण्टेलिजिबल् इति इण्टेलिजिबल् इत्युक्ते हा तत्र किमपि तत्र अवगन्तुं शक्नुमः इति
अस्तु अवगम्यः प्रवचनम्
अवगम्यं प्रवचनम् इति हा इति अस्ति इति मन्ये भगिनि यदि तद् अड्जेक्टिव् अस्ति चेत् विशेषणम् अस्ति चेत् हा अतः स्पोकन् संस्कृत मध्ये विशेषणम् इति दत्तमस्ति चेत् अतः स्वीकुर्मः तत्
तत्र कर्मपदम् इति भवति वा
कुत्र
प्रवचनं
हा अत्र कीदृशं प्रवचनं तत्र तु कर्तृपदम् कीदृशं प्रवचनम् आसीत् भवती प्रवचनं श्रुतवती तत्र प्रवचनं कर्मपदम् अन्य कोऽपि भवतीं पृच्छति कीदृशं प्रवचनम् आसीत् इदानीं तत् कर्तृपदं भवति प्रवचनं
अस्तु
आसीत् इति खलु अस्तु इदानीं भवती वदति यदि प्रवचनम् अवगतवती भवती वदति अवगम्यं प्रवचनम् अथवा अवगम्यं प्रवचनं नासीत् इति भवती वदति
अस्तु महोदय
महोदय महोदय तत्र स्वरूपमहोदयस्य सैट् मध्ये एव अस्ति अवगम्य अवगत्य भेदः परन्तु पठनम्
अस्ति वा भगिनि तत्र लिङ्क् प्रेषयतु भगिनि लिङ्क् प्रेषयतु सर्वेषां कृते
अहं भवतां प्रेषयामि
अस्तु 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 धन्यवादः भगिनि तत्र रेकार्डिङ्ग् वर्गस्य ध्वनिमुद्रणं यदा प्रेषयामि तदपि प्रेषयामि भगिनि धन्यवादः धन्यवादः भगिनि अस्तु धन्यवादः अस्तु तर्हि समयः जातः विरमाम नमस्कारः धन्यवादः अग्रिमवर्गे
धन्यवादः महोदय नमस्कारः
नमस्कारः
नमस्कार